अथ दुर्गासूक्तम्। ॐ जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः सरः परिषदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टाम् दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुलान उर्वी भवातोकायतनयाय संयोः विश्वानि नो दुर्गः जातवेदस्सिन्धुन्न नावादुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यविदातनूनाम् पृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमात्सधस्थात् स नः परिषदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि कमेभ्यो अध्वरेषु सनाच्च होतानव्यश्च सत्सि स्वाञ्चाग्नेतनुपम् पिप्रयस्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नागस्य पृष्ठमभिसंवसा नो वैष्णवीम् लोक इह्यमादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात्।